ततश्च बृंदावनतोऽतिदूरतः वनं गतस्त्वं खलु गोपगोकुलैः हृदन्तरे भक्ततरद्विजाङ्गनाः कदम्बकानुग्रहणाग्रहं वहन् ततो निरीक्ष्य अशरणे वनान्तरे किशोरलोकं क्षुधितं तृषाकुलम् अदूरतो यज्ञपरान् द्विजान् प्रति व्यसर्जयो दीदिवियाचनायतान् गतेष्वथो तेषु अभिधायतेऽभिधां कुमारकेषु ओदनयाचिषु प्रभो श्रुतिस्थिरा अपि अभिनिन्युः अश्रुतिं न किञ्चिदूचुश्च महीसुरोत्तमाः अनादरात् खिन्नधियो हि बालकाः समाययुः युक्तमिदं हि यज्वसु चिरात् अभक्ताः खलु ते महीसुराः कथं हि भक्तं त्वयि तैः समर्प्यते निवेदयध्वं गृहिणीजनाय मां दिशेयुरन्नं करुणाकुला इमाः इति स्मितार्द्रं भवते रितागताः ते दारकाः दारजनं ययाचिरे गृहीतनाम्नि त्वयि सम्भ्रमाकुलाः चतुर्विधं भोज्यरसं प्रगृह्यताः चिरं धृतत्वत्प्रविलोकनाग्रहाः स्वखैर्निरुद्धा अपि तूर्णमाययुः विलोलपिञ्छं चिकुरे कपोलयोः समुल्लसत्कुण्डलम् आर्द्रमीक्षिते निधाय बाहुं सुहृदं ससीमनी स्थितं भवन्तं समलोकयन्तताः तदा च काचित् तदुपागमोद्यता गृहीतहस्ता दयितेन यज्वना तदैव सञ्चिन्त्य भवन्तम् अञ्जसा बिभेषकैवल्यम् अहो कृतिन्यसौ आदाय भोज्यानि अनुगृह्यताः पुनः त्वदङ्गसङ्गस्पृहया उञ्झतीर्गृहं विलोक्ययज्ञाय विसर्जयन् इमाः चकर्थ भर्तॄनपि तासु अगर्हणान् निरूप्य दोषं निजम् अङ्गनाजने विलोक्य भक्तिञ्च पुनर्विचारिभिः प्रबुद्धतत्त्वैस्त्वम् अभिष्टुतो द्विजैः मरुत्पुराधीश निरुन्धि मे गदान्। ओं तत्सदिति श्रीमन्नारायणीये एकषष्टितमं दशकं समाप्तं। श्रीहरये नमः। रमा रमण गोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।